पञ्चदश मंत्र का शांकर भाष्य। हिरण्यम इव हिरण्यमयम् ज्योतिर्मयम् इत्येत तेन पात्रेणेव अपिधानभूतेन सत्यस्यैवादित्यमण्डलस्थस्य ब्रह्मणो अपहितम् आच्छादितं मुखं द्वारम्। तत्त्वं हे पूषन् पावृण्वपसारय सत्यस्यम् उपासनात् सत्यं धर्मो यस्य मम सोऽहं सत्यधर्मा तस्मै मह्यम् अथवा यथाभूतस्य धर्मस्यानुष्ठात्रे द्रष्टये तव सत्यात्मन उपलब्ध्यये।